गायम् कृत्वा गायत्र्योऽर्थम् चर्कमर्थिनाः ब्रह्माणस्त्वा सदक्रत उद्भंसमीवये विरे यत्सानुमारोहद्भूर्यस्पष्टकर्त्वम् तदिन्द्रो अर्थम् ते दति यूतेन वृष्णिरेजति युक्ष्वा हि केशि नाहरीवृषणाकक्ष्यप्रा अथा न इन्द्रसोमपा गिरामुपसृतिम् चर ये हि स्तोमा अभिस्तराभिगृह्णीह्यारूपा ब्रह्म च नो वसोसचेन्द्रयज्ञम् च वर्धय उत्थनमिन्द्रायशम् स्यम् वर्धनम् पुर्निश्विधे शक्रो यथा सुतेषु नो रारणः सख्येषु च सहित्सहित्वजीवहेतम् राजेतम् सुवीर्ये स शक्रपुतनः स गजिन्द्रो वसुदयमानः सुविवृतम् सुनिरजमिन्द्रत्वादातमिज्ञसाः गर्वामपव्रजम् प्रीथि कृष्णराधो अद्रिवः हि त्वा रोदसी बुभेर्घायमानमिन्दतः देशः सर्वतीरपसङ्गा अस्मभ्यम् धूनिः आश्रत्कर्णश्रुधीह भन्नो चिद्दधिष्वमे गिराः इन्द्रस्तोममिमम् मम कृष्वा युजस्थिदन्तरम् विद्मा हि त्वा वृषम् तमम् वाजेषु हवनश्रुतम् ऋषन्तमस्य होमः भूतिम् सहस्रसातमा आतू न इन्द्रकौशिकमन्दसारस्तुतम् पीब न व्यमायुः प्रसूतिरगृभी सहस्रसा मृषिम् परित्वा निर्वणो गिर युमा भवन्तु विश्वताः वृद्धा युमनुवृद्धयो जुष्टा भवन्तु जुष्टयः